इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधि तिवारी। आदौ मुख्यवार्ताः। भारतीय जनता पार्टीति दलेन प्रायः त्रिदशकानन्तरं दिल्ली विधानसभा निर्वाचनेषु निर्णायक विजयो अधिगतः। प्रमुखेषु विजेतृषु भाजपेति दलस्य प्रवेश साहिब सिंहः, विजेन्द्र गुप्ता, कपिल मिश्रा अपि च आपि इति दलस्य आतिशी सोमदत्तः च सन्ति। आपदलस्य वरिष्ठ नेतारः अरविन्द केजरीवालः, मनीष सिसोदियाः, सौरभ भरद्वाजः च, कांग्रेस दलस्य संदीप दीक्षितः, भाजपेति दलस्य रमेश बीधुड़ी च पराजिताः सन्ति। प्रधानमन्त्रिणा नरेन्द्र मोदिना दिल्ली विधानसभा निर्वाचने तद्दलाय जनैः प्रदत्त जनादेशाय जनतायाः कृते कार्तज्ञभावः प्रकटितः। अपि च अद्य इण्डियन सुपर लीग फुटबॉल क्रीडायां कलकत्ता नगरे चेन्नई इत्यनेन सह ईस्ट बंगाल इत्येतस्य दलस्य प्रतिस्पर्धा भविष्यति। अथ वार्ताः विस्तरेण। भारतीय जनता पार्टीति दलेन प्रायः त्रिदशकानन्तरं दिल्ली विधानसभा निर्वाचनेषु निर्णायक विजयो अधिगतः। दलेन विद्यमानं आम आदमी पार्टीति दलं पराजित्य बहुमतांकः प्राप्तः। साम्प्रतं यावत् सप्तति विधानसभासनेषु पञ्चषष्टि आसनानां घोषित परिणामेषु भाजपेति दलेन चतुश्चत्वारिंशद् आसनानि विजितानि। अपि च चतुर्षु आसनेषु अग्रेसरं वर्तते अपरन्त्र आप इति दलेन एकविंशति आसनानि विजितानि, अथ च एकस्मिन् आसने अग्रेसरं वर्तते। तृतीय प्रतिस्पर्धि दलेन एकमपि आसनं न विजितम्। भाजपेति दलीयेषु प्रमुख विजेतृषु नवदिल्लीतः प्रवेश साहिब सिंहः, रोहिणीतः विजेन्द्र गुप्ताः, करावल नगरतः कपिल मिश्रादयः विजेताराः सन्ति। दिल्ली विधानसभा निर्वाचने प्रधानमन्त्रिणा श्रीनरेन्द्र मोदिना तद्दलाय जनैः प्रदत्त जनादेशाय जनतायाः कृते कार्तज्ञभावः प्रकटितः। प्रधानमन्त्रिणा संचार तन्त्रे प्रदत्ते सन्देशे कथितं यत् एतस्य विशिष्टस्य ऐतिहासिक जनादेशार्थं सः दिल्ली वास्तव्यानां जनानां समक्षे नतमस्तको अस्ति। श्रीमोदिना कथितं यत् भाजपेति दलं कृतसंकल्पो वर्तते यत् दिल्ल्यां जनहितार्थं, दिल्ल्याः विकासार्थं, जनजीवने च समग्र गुणवत्ता परिष्कारार्थं, विकसित भारतस्य च निर्माणार्थं दिल्ल्याः प्रमुख भूमिकां सुनिश्चेतुं ये संकल्पाः दलेन स्वीकृताः तत्र कामपि अल्पतां न करिष्यति। अनेन सहैव प्रधानमन्त्रिणा दिल्ली विधानसभा निर्वाचने दलस्य विजयार्थं दलीय कार्यकर्तृभिः कृतप्रयासानाम् अपि अभिशंसनं कृतम्। श्रीमोदिना कथितं यत् दलीय कार्यकर्तृभिः कृतस्य पुरुषार्थं दृष्ट्वा सः गर्वान्वितो वर्तते, ये प्रचण्ड पुरुषार्थं कुर्वन्तो दलं विजयं यावत् प्रापितवन्तः। अन्ते च प्रधानमन्त्रिणा प्रोक्तं यत् भाजपेति दलं इतोपि उत्साहेन कार्यं करिष्यति अपि च दिल्लीवासीनां जनानां सेवां करिष्यति इति। आम आदमी पार्टीति दलस्य राष्ट्रिय संयोजकः अरविन्द केजरीवालः प्रोक्तवान् यत् आप इति दलं दिल्ली विधानसभा निर्वाचने तस्य विपक्षे समागत परिणामः ससम्मानं यत् जनतया प्रदत्तः स्वीकरोति। श्री अरविन्द केजरीवालो अस्मिन् अवसरे भाजपेति दलाय विजयार्थं शुभाशयामपि अददात्, अकथयत् च यत् भाजपेति दलं दिल्ल्यां जनाकांक्षानुरूपं कार्यं विधाय जनाकांक्षाः पूरयिष्यति।
जनता का जो भी निर्णय है उसे हम पूरी विनम्रता के साथ स्वीकार करते हैं। जनता का निर्णय सर माथे पर। मैं भारतीय जनता पार्टी को इस जीत के लिए बहुत बहुत बधाई देता हूं और उम्मीद करता हूं कि जिस आशा के साथ लोगों ने उनको बहुमत दिया है वो उन सभी उम्मीदों और आशाओं पे पूरा उतरेंगे।
केन्द्रीय गृहमन्त्री अमित शाहः कथितवान् यत् दिल्लीवासिभिः प्रदर्शितं यत् मिथ्यावचनैः दिल्ल्याः जनैः भ्रामकं कर्तुं नैव शक्यते। दिल्ली विधानसभा परिणामेषु स्वप्रतिक्रियां प्रदत्त्वा श्रीशाहः उक्तवान् यत् दिल्लीवासिनः मलिन यमुना नद्याः, प्रदूषित पेयजलस्य, विनष्ट मार्गाणां, मुक्त मद्यपानस्य आपणानां प्रत्युत्तरं स्वीयैः मतदानैः प्रदत्तम्। असौ दिल्ली विधानसभा निर्वाचने भाजपेति दलस्य सर्वेभ्यः कार्यकर्तृभ्यः वर्धापनानि अयच्छत्। रक्षामन्त्री राजनाथ सिंहः अवदत् यत् दिल्ली विधानसभा निर्वाचने भाजपेति दलस्य विजयः प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वे भाजपेति दलस्य नीतिषु च विश्वासस्य विजयो अयं विद्यते। भाजपेति दलस्य अध्यक्षः जेपी नड्डाः प्रावोचत् यत् अयं हि ऐतिहासिकः जनादेशः दिल्ल्याः उज्ज्वलाय प्रगतिशील भविष्याय च श्रीमोदिनः कृतलक्ष्येषु जनानां विश्वासं प्रदर्शयतीति। दिल्ली विधानसभा निर्वाचने दलस्य विजयः प्रधानमन्त्री नरेन्द्रमोदी वर्यस्य नेतृत्वस्य विकासस्य विश्वासस्य च विजयो विद्यते इति दिल्ली भाजपेति अध्यक्षः वीरेन्द्र सचदेवः अवदत्। नवदिल्ल्यां वार्ताहरैः सह वार्तालापं कुर्वन् श्री सचदेवः अवदत् यत् दिल्ली नगरस्य जनाः श्रीमोदिनः विकासदृष्ट्यां विश्वासं प्रकटितवन्तः इति।
बदलाव का अगर कोई नाम है तो श्रीमान नरेंद्र मोदी हैं, क्योंकि दिल्ली की जनता ने विकास का हाथ थामा है, मोदी जी का हाथ थामा है, और दिल्ली की जनता ने बताया है कि दिल्ली को विकसित भारत की विकसित राजधानी बनाना है तो मोदी के साथ चलना है। इसलिए इस जीत का अगर कोई श्रेय जाता है तो हमारे कार्यकर्ताओं के साथ माननीय प्रधानमंत्री जी को जाता।
उत्तर प्रदेश से मिल्कीपुर विधानसभा क्षेत्रे भाजपेति दल प्रत्याशी चंद्रभानु पासवान समाजवादी पार्टीति दलस्य अजीत प्रसादं दशाधिक सप्तशतोत्तरैकषष्टिः मतैः पराजित्य उपनिर्वाचनं विजितवान्। अवधेयं वर्तते यत् मिल्कीपुरस्य विधानसभासनं सपादलस्य नेत्रा अवधेश प्रसादेन फैजाबादतः 24,000 लोकसभा निर्वाचने प्राप्त विजयानन्तरं रिक्तं जातमासीत्। प्रधानमन्त्री नरेन्द्रमोदी सोमवासरात् आरभ्य फ्रांस संयुक्ताराज्यामेरिका देशयोः महत्वपूर्णां यात्रां विधास्यति। यात्रावधौ कृत्रिम बुद्धिमत्तायाः रक्षाव्यापार रणनीतिक सहभागितायां ध्यानं प्रदास्यते। पेरिस नगरे असौ फ्रांसदेशस्य राष्ट्रपतिना इमैनुअल मैक्रो इत्यनेन सह एआई एक्शन इत्येतस्याः समित्याः सहाध्यक्षताम् अपि करिष्यति। रक्षासहयोगे आर्थिक सम्बन्धे अपि चर्चा विधास्यते। फ्रांस देशतः प्रधानमन्त्री अमेरिकीय राष्ट्रपतिना डोनाल्ड ट्रम्प इत्यमुना साकं वाशिंगटन नगरं प्रति यास्यति। बांग्लादेशे शुक्रवासरे रात्रौ गाजीपुरे व्यापादिताक्रमणे न्यूनातिन्यूनं 14 जनाः व्रणिताः समभवन्। अवामी लीग इत्येतस्य कार्यकर्तारः पूर्वमुक्ति संग्राम विषयक मन्त्रिणः मुजम्मल हक इत्येतस्य आवासे ध्वंसस्य जनसमूहस्य प्रयासम् अतिक्रम्य आक्रमितवन्तः। एतदनन्तरं सैन्यकर्मिणः घटनास्थलं सम्प्राप्य क्षतान् व्रणितान् च रक्षित्वा तान् च चिकित्सालये आपत्कालिक चिकित्सायै प्रेषितवन्तः। अन्ते च मुख्यवार्ताः पुनरेकवारम्। भारतीय जनता पार्टीति दलेन त्रिदशकानन्तरं दिल्ली विधानसभा निर्वाचनेषु निर्णायक विजयो अधिगतः। प्रमुखेषु विजेतृषु भाजपेति दलस्य प्रवेश साहिब सिंहः विजेन्द्र गुप्ता कपिल मिश्रा अपि च आपदलस्य आतिशी सोमदत्तः च सन्ति। आपदलस्य वरिष्ठ नेतारः अरविन्द केजरीवालः मनीष सिसोदियाः सौरभ भारद्वाजः च कांग्रेसदलस्य संदीप दीक्षितः भाजपेति दलस्य रमेश वीधुडी च पराजिताः सन्ति। प्रधानमन्त्रिणा नरेन्द्रमोदिना दिल्ली विधानसभा निर्वाचने तद्दलाय जनैः प्रदत्त जनादेशाय जनतायाः कृते कार्तज्ञभावः प्रकटितः। अपि च अद्य इण्डियन सुपर लीग फुटबॉल क्रीडायां कलकत्ता नगरे चेन्नई इत्यनेन सह ईस्ट बंगाल दलस्य प्रतिस्पर्धा भविष्यति। प्रियाः श्रोतारः, संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ च न्यूज ऑन एआईआर इति चलदूरभाषीयतन्त्रांशे समुपलब्धो भविष्यति।